विश्वस्य गोपा देवा देवेषु यज्ञियाः नायजसे भूतदक्षसा निद्रातनानरथ्यावरुणोजश्च सुक्रतुः सनात्सु जातातनया धृतव्रता सा माता विश्ववेदसा सूर्याः जप्रमाहसा महीज जानादितिर्वृतावरी महान्ताः मित्रावरुणा सम्राजाः देवा वसूरा वृधानावृतमाघोषतो बृहत् नपातासवसो महःसूनो दक्षस्य सुक्रतुः श्रप्रदानो युषो वास्वधिक्षितः संयादानो नियेमधुर्दिव्याः पार्थिवीरिषाः नभस्वधीरावाहं चरन्तु भ्रष्टयाः अधिया बृहतो दिवो अभियुधे वपश्यतः संराजानमसेहिता नानिषेदुःसाम्राज्याय सुक्रतु धृतव्रता क्षत्रिया क्षत्रमासतुः अक्षश्चिद्गा दुवित्तरानुल्बणेन चक्षसा निचिन्मिषन्ता निचिरा निचिक्यतुः उतनो देव्यरीतिरुरुष्यताम् न सत्या पुरुष्यन्तो मरुतो वृद्धसवसः तेनो नापमूरष्यदधिपानक्तम् सुदानवः अदृष्यन्तो निपायुभिः स चेमहि अघ्नते विष्णवे भजमरिष्यन्तः सुदानवे सुधिस्वजावन् सिन्धो पूर्वचित्तये तद्वार्यम् वृणीमहे वरिष्ठम् गोपयत्यम् मित्रो यत्पान्ति वरुणो यदर्यमा उदनः सिन्धूरपान्तम् मरुतस्तदश्विना इन्द्रो विष्णुर्मेध्वांसः सजोषसः ते हिष्मा वनुषो नरोऽभिमा चिङ्कयस्यचित् विघ्नम् अक्षोदः प्रतिघ्नम् त्रिभूर्णयः अयमेक युक्था पुरोर्जष्टे विश्वतीः तस्य व्रतान्योगश्च रामसि अनुपूर्वाज्ञा साम्राज्यस्य षष्ठिव मित्रस्य व्रतावरुणस्य दीर्घश्रुत् पर्यो रश्मिना दिवोऽन्तान्मे पृथिव्याः उभे आपप्रौरोदसीमहित्वा उदुष्यसरणे दिवो ज्योतिरयम् स्रसूर्याः अग्निर्नः शुक्रस्वमिधान आहूतः वचो दीर्घप्रसध्वनिषेवाजस्य गोमतः ईशेहि पित्वो विषस्य धावने तत्सूर्यम् रोदसी उभे दोषावस्तोरुपब्रुवे भोजेष्वस्मा अभ्युच्च रासदा रिद्रमुक्षण्याय नेरजतम् हरजाने रथम् युक्तमसनाम सुषामानि सामे अश्वानाम् हरीणाम् हितोसना उतोऽनुकृत्यानाम् नृपाहसा सुन्दरभिषूकसावन्ताभिप्राणविष्ठया मती महोवाजिनावर्वन्तासचासनम् युवो जुषूरथम् भुवे सधस्तुच्चाय सूरिषु मधूर्तदक्षावृषणावृषण्वसु युवम् वरो सुषाम् मे महेतनेना सत्या अवोभिर्जाथो वृषणावृषण्वसु तावा मद्यः वामहे हव्येभिर्वाजिनीवसु पूर्वीरिषयिषयम् तापतिक्षपः आवाम् बाहिष्ठो अश्विनारथो जातुश्रुतो नरा उपस्थो माम् तुरस्य दर्शत श्रिये युगुराणाचिदश्विनामन्येथाम् मृषन्वसु युगम् निरुद्रापर्षचो अधिद्विषाः मानुषम् वक्षोभिः परिदीयतः धियम् जिन्वावधूवर्णा सुभस्पती उवानो यातमश्विना राजा विश्वपुषाः सह मघवाहाना सुवीरावनवच्युता आमे अस्य प्रजीव्या अमिन्द्रनादत्यागतम् देवादेवेभिरद्यसजनस्तवा वयम् हि वाङ्गवामहवुक्षण्यन्तो व्यस्वभत् सुमतिभिरुपविप्राविहागतम् अश्विना श्रीषेऽस्तु हि कुविते श्रवदोहवम् नेदीयसः कूलजातः पणीम् कृता वैयश्वस्य श्रुतम् न रोतो मे अस्य वेदसः सजोषसावरुणो मित्रो अर्यमा युवा दत्तस्य धिष्ण्या युवाणी तस्य सूरिभिः अहरहर्षाम् शिक्षतम् यो वाम् यज्ञेभिरावृतो धीवस्त्रावधूरीव सपर्यन्ता शुभे चक्राते अश्विना यो वामुरुव्यतस्तमम् चिकेततिर्वाह्यम् वर्तिरश्विना परियातमस्मयु अस्माभ्यम् दुवृषम् वसूयातम् वर्तिर्नृवाह्यम् विषुद्रुहेव यज्ञमोहथुर्गिरा वाहिष्ठो वाम्भवानाम् सोमो दूतो भुवन्नरा युगाभ्याम् भूत्वश्विना यदतो दिवो अर्णवयशो वामदथो गृहे सुतमिन्मे अमर्त्या उदस्याश्वेतजापरीवाहिष्ठावाम् नदीनाम् सिन्धुर्हिरण्यवर्तनिः स्मदेतया सुकीर्त्याश्विना श्वेतया धिया महेथे शुभ्रजा वाना युक्ष्मायित्वम् रथासः युवस्वपोष्यावसो आन्नो वाजो मधुपिबास्माकम् सवनागहि तव वायवृतस्पते त्वष्टुर्जा मातरद्भुता अवाम् स्यावृणीमहे त्वष्टुर्जा मातरम् वयमीशानम् राजयीमहे सुतावन्तो वायुम् युम्ना जना सह वायो याहि शिवा दिवो वहस्वासु स्वस्यम् वहस्वमहपृथुपक्षसारथे त्वाम् हि सुप्सरस्तमम् ऋषदनेषु भूमहे रावाणम् नाश्वपृष्ठम् मम्भना सत्त्वम् नो देवमनसा वायो मन्दानो अग्र्यः कृधिवाजाम् अपोधियाः अग्निरुक्ते पुरोहितो द्यावाणाबर्हिरध्वरे निद्रायामि मरुतो ब्रह्मनस्पतिम् देवाङ्गवोभरेण्यम् आपशृङ्गासि पृथिवीम् वनस्पतीनक्तमोषधीः विश्वेतनोऽवसवो विश्ववेदसोऽधीनाम् भूतप्राविकाराः प्रसूनजे त्वध्वरो ओग्नादेवेषु पूर्यः आदित्येषु प्रवरुणे धृतव्रते मरुत्सु विश्वभारुषु विश्वे हिष्मामनवे विश्ववेदसो भुवन् वृधे दिशादसः अनिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नो मृगम् शर्दिः आनो अद्य समनसो गन्ता विश्वे सजोषसः विचागिरा मरुतो देव यदि दे सदनेपस्येमहि अभिप्रिया मारुतो यावो अस्या हव्यामित्रप्रजाथन आबर्हिरिन्द्रो वरुणस्तु रामरादित्यासस्वतम् पुनः वजम्बो वृक्कबर्हिषो हितप्रायसानुषग् सुतसोमासो वरुणः वामहे मनुष्वदिद्धाग्नजः आप्रजातमरुतो विष्णो अश्विनापूषन्मागीनजाधिया इन्द्रायादुःप्रथमस्य निश्वभिर्वृषायो वृत्रः गृहे विनो देवासो अध्रुवोच्छिद्रम् धर्म यच्छत अनदूराद्वासवो नु चिदन्ति तो वरूथमददर्शति अस्ति हि वस्वजात्यम् विषादसो देवासो अस्याप्यम् पूर्वस्मै सुविताय वोचतमक्षूनाजनव्यासे इलाहि उपस्तुतिमिदा वामस्य भक्तये उपावो विश्ववेदसो नमस्युराङ्गदृक्षण्यामिव उदिष्यवस्वविदासु प्रणीतयोस्थाधूर्धोवरेण्यः निर्दिपादश्चतुष्पादो अर्थिनो विश्रण्वदयुष्णवाः देवम् देवम् भोपासे देवम् देवमभिष्टाये देवम् देवम् भुवे भवाच सातजे गृणन्तो देव्याधिया देवासो युष्मामन वेदमन्यभो विश्वे साकम् धरादयः तेनो अद्य ते अपरम् तुचेतु न भवन्तु वरिभोविदाः प्रवस्वंसाम्यदृढस्थंसमुपस्तुतीनाम् न तम् धूर्तिर्वरुणमित्रमद्यम् यो बोधामभ्यो वीधत् प्रसक्षयम् विरदे विमहीर्षो यो भो परायदासति प्रजाभिर्जायते धर्म न स्पर्यरिष्टः सर्वजेधते ते सविन्दे युधस्सुखेभिर्जात्यध्वनः हर्यमा मित्रो वरुणः सरादयो यन्त्रायम् ते सजोषसः अद्ये जिदस्मे कृणु धान्यम् जनम् दुर्गे जिदासुधरणम् येनाचीदस्मादरणिपरोऽनुधाश्रेधम् दीविनश्यतु यदद्य सूर्यबुद्ध्यति प्रियक्षत्रादृतम् दधा अन्यम् रजि प्रभृति विश्ववेदसो यद्वा मध्यम् दीने दिवः यद्वाभिरित्वे असुरारृतम् यते चर्येम विदासुषे वयम् ददतो वसवो विश्ववेदस उपस्थे याममध्या यदद्यसूरबुदीतेयम् मध्यम् दीन आतुति वामन्धत्समनवे विश्ववेदसो जुह्वानाय प्रचेदसे वयम् तद्वस्वम् राजा वृणीमहे पुत्रो न बहुवाह्यम् अस्यामदादित्यायुह्वतो हविर्ये नवस्यो नसामहै ये त्रिंशदित्रयस्परो देवासो बर्हिरासदन् विदम् नहद्विदासनन् वरो नो मित्रो अर्यमास्मद्रादिषाचो अग्नयाः पत्नीवन्तो वशकृताः तेनो गोपाः प्राच्यास्तवुदक्तयित्थान्यग् पुरस्तात् सर्वजा विशा यथा वसन्ति देवास्तदेशाम् न किरामीनत् अरावाचनवत्याः सप्तानाम् सप्तरिष्टयः सप्तद्युम्नान्येषाम् सप्तोऽधिश्रियोऽधिरे बभ्रुरे गोविरो न सूनरो युभाञ्जङ्के हिरण्ययम् यो निमेक आससा सद्योतनोऽन्तर्देवेषु मे धीरः वासीमेको बिभर्ति हस्त आयसीमन्तर्देवेषु विद्रुभिः वज्रमेको बिभर्ति हस्तः हि तम् तेन वृत्राणि जिघ्नते
विग्मेको विभर्ति हस्त आयुधम् सुधीरुग्रो जलाशभेषजः असजेकः पीपा यतस्करो यथा एष वेदनिहीनाम् त्रीण्येकपुरुगायो विचक्रमे यत्र देवासो मदन्ति विभिर्द्वाचरतरेकजा सह प्रभासेव वसतः ततो द्वाचक्रादेवुपमादिभिः सम्राजाः सर्पिराः सुति अरचलम् तरेके महिषामन्वतरे न गूर्जमरोचयम् नहि भो अस्त्यर्भगो देवासो नगो मारकः विश्वे सतो महान्तयित् स्तुतासो अर्धारिषादसो येस्तत्रयश्च त्रिंशश्च मनोर्देवा यज्ञियासः तेन श्राद्धम् देव ददौ नो अधिवोचत मानः पथः पित्यान्मानवादधि दूरम् नैष्टपरावताः ये देवास इहस्थ न विश्वे वै स्वानराभूता अस्मभ्यम् सर्व सप्रथो गवे स्वाययच्छत यो यजाति यजादयत्सुनवच्चपदादि च ब्रह्मेदिन्द्रस्य जागरणे पुरोणासंयो अस्मै सोमम् रथ आशिरम् पादित्तम् शक्रो अम्भासः तस्य द्युमा असद्रथो देवदूतस्य सुषुवत् विश्वा मन्मन्न मित्रिया अस्य प्रजावति गृहे सस्यन्ति दिवे दिवे युराधेनुमती दुहे या दम्पती समनसा सनुता च धावतः देवासो नित्ययासिराः प्रतिप्राशव्याङ्गितः संयम् च बर्हिराः साते ेषु वायतः न देवानामपिन्मृतस्वदनिम् न जो गुक्षतः श्रो बृहद्वीवासतः पुत्रिनाता कुमारिणा विश्वमाजुर्व्या स्मृतः उभाहिरण्यदेशसा वीतिहोत्रा कृतद्वसूदशम् तामृतायकम् समुधोरोमसम्भतो देवेषु कृणुतो दुवाः आसर्मपर्वतानाम् ऋणीमहे नदीनाम् आविष्णोः स चाभुवाः अयितु भूरारयर्भगः स्वस्ति सर्वधातमः उरुरध्वा स्वस्तये नरमतिरनर्वणो विश्वो देवस्य मनसा आदित्यानामनेहयित् यथा मित्रो हर्यवावरुणः सन्ति गोपाः सुकारदस्य पन्थाः अग्निम् वः पूर्व्यम् गिरा देवमीलेवसूनाम् सपर्यन्तः पुरप्रियम् मित्रम् न क्षेत्रसाधसम् मक्षु देववतो रथः सूरो वा मृत्सुकासूचित् देवानाम् जयन्मनो यजमानयक्षत्यभीतयज्वनोऽभुवत् न यजमानरिष्यसि न सुन्वा न देवयो देवानाम् जयन्मनो यजमानयक्षत्यभीतयज्वनोऽभुवत् कष्टम् कर्मणानसन्नप्रयोषन्नयोषति देवानाम् यजिन्मनो यजमानैलक्षत्यभीतयज्वनोऽभुवत् अस तत्र सुवीर्यमुदत्यधास्वस्यम् देवानाम् यजिन्मनो यजमानैलक्षत्यभीतयज्वनोऽभुवत् भद्रम् नो अपीवादयमनाः हरिः ओगताङ्ग्रीषिणकरम् वारिन्द्रस्य गाधया मदे सोमस्य वोचता
यस्रिम् दमनर्शनिम् पितृम् दासमहीशुभम् वधीरेदुग्रोरिणम् नपः न्यर्भूतस्य विष्टपम् वर्ष्माणम् बृहतस्तीर कृषेतदिन्द्रपौंस्यम् रतिश्रुताय वो धृषत्तूर्णा सम्मगिरेरधि कुबेषु श्रीप्रमोदये स गोरस्वस्य विव्रजम् मन्दानः सोम्येभ्यः पुरम् न सूरदर्शसि यदि मे रारः सुतभुक्ते वाददसेचनाः आरादुपस्वदागहि वयम् गाजे अपिश्वसि स्तोतारगिन्द्रगिर्वणः त्वन्नो जिन्वसोमपाः उदनः पितुमाभरसंरानो अवीक्षितम् मघवन्भूरि देवसु उत नो गोमतस्कृति हिरण्यवतो अश्विनाः इलाभिः संरभेमहि मृगदुःखम् भवामहे सुप्रकारस्वमूतये साधु कृण्वन्तमवासे यः संस्थे तिच्छतक्रदुरादीम् कृणोति वृद्राः जलदृभ्यः पुरोपसुः सरसक्रश्चिदास गद्दानवाङ्गन्तराभरः इन्द्रो विश्वाभिरुतिभिः यो राजो ओमनिर्महां सुपारस्सुम् वतस्सखाः मिन्द्रमभिगाजत आयम् तारम् महि स्थिरम् मृतनासुश्रवोजितम् भूरेरीशा नमोजसा नकीरस्य सचीनाम् नियन्ता सूनृतानाम् न किर्भक्ता न दादिति न नूनम् ब्रह्मणा मृणम् प्रासूनामस्ति सुन्वताम् सोमो अप्रतापे पन्ययिदुपगायतपन्यभुक्तानि संसत ब्रह्मा कृणोतपन्ययित् पन्यादब्धिरक्षत सहस्रा भाद्यवृतः इन्द्रो यो यज्वानो वृधः विषोचारस्वधा अनुकृष्टीनामन्बाहुवः इन्द्रपिबसुतानाम् इभस्वधीनवानामुदयस्तु ग्रेसताः उतायमिन्द्रयस्तव अतीहि मन्युषाविनम् सुषुवाम् समुपारणे इमम् रातम् सुतम् पीब इहि तिस्रः परावत इहि पञ्चजनाङ्कति धेना इन्द्रावचाकसत् सूर्यो रश्मिम् यथा सृजात्वा यच्छन्तु मे गिराः निम्नमापो न सद्यग् अध्वर्यवादुहिषिम् च सोमम् वीराज शिप्रिणे भरासुतस्य पीतये यबुद्रः प्रलिकम् विनन्या अक्सिन्धूम् रवासृजत् योगोषु पक्वम् धारयत् अहम् रत्नमदीषमौर्णपाभमहेशुभम् हिमेनाविद्यदर्भूतम् प्रवमुग्राय निष्ठुरेषानाय प्रसक्षिणे देवत्तम् ब्रह्म गायत यो विश्वान्यभिमृता सोमस्य मदे अम्धसः इन्द्रो देवेषु चेतति ्याहरिहिरण्यकेश्या बोधामभिप्रयो हितम् सर्वाञ्चन् पापुरुष्टुतः प्रियमेधस्तुता हरिः सोमपेयाय वक्षतः वयम् घत्वा सुतावन्तापो न रक्तबलिहिषः पवित्रस्य प्रस्रवणेषु वृत्रहन्वलिस्तोतार आसते स्वरम् दित्वा सुतेन लोपसोमिरेकमुक्थिनाः कदा सुतम् त्रिषाणवोकागमयिन्द्रः स्वब्धीवंसकः कण्वेभिर्दृष्टमाधृषद्वाजम् दर्शि सहस्रिणम्
शङ्करूपम् अघवन् वितर्षणे भक्षु गोमन्तमीमहे आयिगायान्ध सोमद इन्द्राय मेऽध्यातिथे यः संविश्वो हर्योर्यः सुते सजाः वज्रीरथो हिरण्ययाः यः सुषव्यः सुदक्षिणयो यः सुक्रदुर्घृणे करः सहस्राजस्वतामघलिन्द्रो यः पूर्ध्विरारितः यो धृषितो यो वृतो यो अस्ति श्मश्रूषुश्रितः विभूतज्ञम् नश्च वनः पुरुष्टुतः कृत्वा गौरीवसाखिनः कयीम् वेदसुते स चापि बन्तम् कत्वयोदधे अयम् यः पुरो विधिरत्योजसामन्दानः शिप्यन्धसः दानामृगो न वारणः पुरुत्रा च रथम् दधे निष्वानियमता सुते गमो महांश्च रस्योजसा यमुग्रः सन्निष्ठृतस्थिरोरणाय संस्कृतः यदि स्तोतुर्मघवा शृणबद्धमम्नेन्द्रो योषत्यागमत् सत्यमित्था वृषेदसि वृषजूर्नो वृतः वृषाह्योग्रशृण्षेप रावति वृषो अर्वावति श्रुतः वृषणस्ते अभीसवो वृषाकसा हिरण्यजी वृषारथो मघभम् वृषणाहरी वृषात्वम् स दक्रतो वृषासोता सुनोतु ते वृषम् ऋजिवृन्दाभरा वृषा दधम् ते वृषणम् नजीष्वादुभ्यम् सादर्हरीणाम् ये व्रजाये मधुरविष्ठसोम्यम् नायमच्छा भगवा शृणभद्गिरो ब्रह्मोक्त सुक्रतुः अहम् कृत्वा रथेष्ठा माघरजो रथयुजः तिरश्चीधर्यम् समनानि वृत्रहन्नन्येषाम् व्यासदक्रतो अस्माकमद्यान्तमम् स्तोमम् धिष्वमहामः अस्माकम् ते सपनासम् तु सन्त मामदा यद्युक्षसोमपाः नैषस्तवनो मम शास्त्रे अन्यस्यरण्यति यो अस्मानीलरानयत् इन्द्रश्चिद्धारुदब्रवी स्त्रिया हास्यम् मनाः उतो अहकृतम् रघुम् सप्ती जिघ्रामदच्युता मिथुनावहतो रथम् ये वेद्धोर्विष्णमुत्तरा अधः पश्य स्वमोपरि सन्तराम् पादकौहर माते कलप्रकौरिशान् श्रीः ब्रह्मा बभूवीथ येन्द्रजाहि हरिभिरुपकम् पश्य सुष्टुतिम् दिवो अमुष्यशासतो दिवम् यजदीवावसो आत्माग्रवावदनम् यः सोमी घोषेण यच्छतु दिवो अमुष्यशासतो दिवम् यजदीवावसो अत्राविनेमिरेषामुराम् न धूनुते मृगाः दिवो अमुष्यशासतो दिवम् यजदीवावसो त्वा कण्वा जिहापसेहवम् देवाज सातये दिवो अमुष्यशासतो दिवम् जयदीवावसो दधाविदे सुतानाम् कृष्णेन पूर्वपाय्यम् दिवो अमुष्यशासतो दिवम् जयदीवावसो मत्पूरम् धर्मागहि विश्वतो धीर्णभूतये दिवो अमुष्यशासतो दिवम् जयदीवावसो आनो याहि महेमते सहस्रो ते सतामघ दिवो अमुष्यशासतो दिवम् जयदीवावसो आत्वा होतामनुर्हितो देवत्रावक्षदीढ्याः दिवो अमुष्यशासतो दिवम् यदि भावसो
आत्मा मदच्युता हरी शेनम वक्षेव वक्षतः दिवो अमुष्यसा स दो दिवम् जयति वावसो आजाह्यजापरिस्वाहा सोमस्य पीतये दिवो अमुष्यसा स दो दिवम् जयति वावसो आनो जाह्युपसृत्युक्तेषूरणया इह दिवो अमुष्यसा स दो दिवम् जयति वावसो स्वरूपैरासुरो गहि संहृतैः संहृता स्वः दिवो अमुष्यता स दो दिवम् जयति वावसो आयाहि पर्वतेभ्यः समुद्रस्याधिभिष्टपाः दिवो अमुष्यसा स दो दिवम् जयति वावसो आनोगव्यान्यस्यासहस्रा सूरदद्रिः दिवो अमुष्यसा स दो दिवम् जयति वावसो आनसहस्रशोभराजुतानि शतानि च दिवो अमुष्यसा स दो दिवम् जयति वावसो आयदिन्द्रश्च दद्वाहे सहस्रम् वसूरोजिषः ओजिष्ठमस्यम् पशुम् यद्रावातरम् वसो रुषासो रघुष्यताः ध्यायम् ते सूर्या इव पारावतस्य रातिषु द्रवच्चक्रेष्वासिषु तिष्ठाम्बरस्य मध्या अग्निनेन्द्रेणवरुणेन विष्णूनाधित्यैरुद्रैर्वसुभिः स चाभुवाः सजोषसामृषसा सूर्येण च सोमम् विभतमश्विना विश्वाभिर्देभिर्भुवनेन वाजिना दिवा पृथिव्याद्रिभिः स चाभुवाः सजोषसामृषसा सूर्येण च सोमम् विभतमश्विना विश्वैर्देवैस्त्रिभिरेकादशैर्याद्भिर्मरुद्भिर्भृगुभिः स चाभुवाः सजोषसा भुषसा सूर्येण च सोमम् विभतमश्विना युषेधाम् यज्ञम् बोधतम् नवस्य मे विश्वेहदे भौसभनावगच्छतम् सजोषसा भुषसा सूर्येण चेणम् सोमम् जुषेधाञ्जुपसेव कन्यनाम् विश्वेहदे भौसवनावगच्छतम् सजोषसा भुषसा सूर्येण चेषम् नो गोढमश्विना गिरो जुषेधामध्वरम् जुषेधाम् विश्वेहदे भौसवनावगच्छतम् सजोषसा भुषसा सूर्येण चेषम् नो गोढमश्विना हारिद्रमेव पतथो वने दुःखसोमम् सुतम् महिषेवावगच्छतः सजोषसा भुषसा सूर्येण चक्रिर्भक्तिर्जातमश्विना हंसावीव पतथो अध्वगावीव सोमम् सुतम् महिषेवावगच्छतः सजोषसा भुषसा सूर्येण चक्रिर्भक्तिर्जातमश्विना श्येनावीव पतथो हव्यदातये सोमम् सुतम् महिषेवावगच्छतः सजोषसा भुषसा सूर्येण चक्रिर्भक्तिर्जातमश्विना विवादम् च दृप्नुतम् चागच्छतम् प्रजाम् च धत्तम् द्रवीणम् च धत्तम् सजोषसा भुषसा सूर्येण चोज्जम् न धत्तमश्विना जजातम् च प्रस्तूतम् च प्रजावतम् प्रजाम् च धत्तम् द्रवीणम् च धत्तम् सजोषसा भुषसा सूर्येण चोज्जम् न धत्तमश्विना हतम् च शत्रोन्यजातम् च मित्रिणः प्रजाम् च धत्तम् द्रवीणम् च धत्तम् सजोषसा भुषसा सूर्येण चोज्जम् नो धत्तमश्विना मित्रावरुणवन्ता कुतधर्मवन्ता मरुत्वन्ता जरितुर्गच्छतो हवम् स
सजोषसा उषसा सूर्येण सादित्यैर्यातमश्विना अङ्गीरस्वन्ता बुधविष्णुवन्ता मरुत्वन्ता जरदुर्गच्छदोहवम् सजोषसा उषसा सूर्येण सादित्यैर्यातमश्विना रघुवन्ता मृगनाभाजवन्ता मरुत्वम् ताजरितुर्गच्छदोहवम् सजोषसा उषसा सूर्येण सादित्यैर्यातमश्विना ब्रह्मा जिन्वतमुत जिन्वतम् धियो हतम् रक्षाहम् दिषेधतममीवाः सजोषसा उषसा सूर्येण च सोमम् सोऽन्वतो अश्विना क्षत्रम् जिन्वतमुत जिन्वतम् रेन्हतम् रक्षाहम् दिषेधतममीवाः सजोषसा उषसा सूर्येण च सोमम् सोऽन्वतो अश्विना धेनोर्जिन्वतमुत जिन्वतम् विशो हतम् रक्षाम् सिषेधतममीवाः सजोषसा उषसा सूर्येण च सोमम् सोऽन्वतो अश्विना अत्रेवशृणुतमम् भूर्यस्तूतिम् स्यावास्वस्य सोऽन्वतो मदच्युता सजोषसा उषसा सूर्येण राश्विनातिरो अह्न्यम् स्वर्गाङ्गिव सृजतम् सृष्टुगेरुपस्यास्वस्य सुन्वतो मदच्युता सजोषसा उषसा सूर्येण राश्विनातिरो अह्न्यम् रश्मीङ्ग्रीवयच्छतमध्वरापस्यावास्वस्य सुन्वतो मदच्युता सजोषसा उषसा सूर्येण चाश्विनातिरो अह्न्यम् अर्वाग्रथम् नियच्छतम् पिबतम् सौम्यम् मधु आयातमश्विनागतमभस्युर्वामहम् भूवे धत्तम् रत्नानि दाशुषे नमो भागे प्रस्थीते अध्वरे नरा विवक्षणस्य पीतये आजातमश्विनागतमपश्युर्वामहम् भूवे धत्तम् रत्नानि दाशुषे स्वाहा कृतस्यम् सुतस्य देवाबन्धसः आजातमश्विनागतमपश्युर्वामहम् भूवे धत्तम् रत्नानि दाशुषे अमितासीसुन्वतो वृक्षबर्हिषः पिबासो मम्मदाजकम् स चक्रतो यन्ते भागमधारजन् विश्वास्येहानः पृतानाभुरुद्रजः समप्सुजिन्मरुत्वाङ्गिन्द्रसत्पते रावस्तोतारम् अघभन्नभत्वाम् पिबासो मम्मदाजकम् स चक्रतो यन्दे भागमधारजन् विश्वास्येहानप्रदनाभुरुद्रजः समप्सुजिन्मरुत्वाङ्गिन्द्रसत्पते ऊर्जादेवाङ्गवस्योजसा त्वाम् विभासो मम्मदाजकम् स चक्रतो यन्दे भागमधारजन् विश्वास्येहानप्रतनाभुरुद्रजः समप्सुजिन्मरुत्वाङ्गिन्द्रसत्पते जनिताधिवोजनिता पृथिव्या पिबासो मम्मदाजकम् स चक्रतो यन्दे भागमधारजन् विश्वास्येहानप्रतनाभुरुद्रजः समप्सुजिन्मरुत्वाङ्गिन्द्रसत्पते जनिता स्वानाम् जनिता गवामसि पिबासो मम्मदाजकम् स चक्रतो यन्दे भागमधारजन् विश्वास्येहानप्रतनाभुरुद्रजः समप्सुजिन्मरुत्वाङ्गिन्द्रसत्पते अत्रीणाम् सोमामद्रिवो महस्त्रिधि पिबासो मम्मदाजकम् स चक्रतो यन्दे भागमधारजन् विश्वास्येहानप्रतनाभुरुद्रजः समप्सुजिन्मरुत्वाङ्गिन्द्रसत्पते स्वस्य सुन्वतस्तथा शृणु यथा शृणोरथे कर्माणि कृण्वतः प्रत्रतरस्युमाविदत्वमेकयन् नृषाद्ययन्द्र ब्रह्माणि वर्धयन् ेष्वाविध प्रसंवरः स जीवत इन्द्रविश्वाभिरुचिभिः माध्यम् दिनस्य सवनस्य वृत्रहन्नवेद्यपि भासोमस्य वज्रिवः सेहान उग्रवृतनाभिद्रुहः स जीवत इन्द्रविश्वाभिरुचिभिः माध्यम् दिनस्य सवनस्य वृत्रहन्नलेभ्यभिभासोमस्य वज्रिवः एकरालस्य भुवनस्य राजसि सजीपत इन्द्रविश्वाभिरुचिभिः माध्यम् दिनस्य सवनस्य वृत्रहन्नलेभ्यभिभासोमस्य वज्रिवः स्थावानायवयसि त्वमेकयिच्छजीवत इन्द्रविश्वाभिरुचिभिः माध्यम् दिनस्य सवनस्य वृत्रहन्नलेभ्यभिभासोमस्य वज्रिवः क्षेमस्य च प्रयुजस्य त्वमीशिषेषजीवत इन्द्रविश्वाभिरुचिभिः माध्यम् दिनस्य सवनस्य वृत्रहन्ननेद्यभिभासोमस्य वज्रिवः क्षत्राय त्वमवासिरत्वमाविधसजीपत इन्द्रविश्वाभिरुचिभिः माध्यम् दिनस्य सवनस्य वृत्रहन्ननेद्यभिभासोमस्य वज्रिवः स्य रेभतस्तथा शृणु यथा शृणोरथे कर्माणि कृण्वतः प्रत्रसदस्युमाविधत्वमेकयन् नृषाह्यनिन्द्रक्षत्राणि वर्धयन् यज्ञस्य हि स्थरित्विजासस्मीवाजेषु कर्मसु इन्द्राग्नीतस्य बोधतम् ोषासारथयावानावृत्रहणापराजिता इन्द्राग्नीतस्य बोधतम् इदम् वाम् मधिरम् मध्वदुःखम् मद्रीभिर्नराः इन्द्राग्नीतस्य बोधतम् जुषेताम् यज्ञमिष्टये सुतम् सोमम् सधस्तुति इन्द्राग्नि आगतम् नरा इमाजुषेधाम्रायभिर्हव्यान्योहसोः इन्द्राग्नि आगतम् नरा इमाङ्ग्रायत्रवर्तनिम् जुषेधाम् सुष्ठुतिम् मम इन्द्राग्नि आगतम् नरा प्रातर्यावाभिरागतम् देवेभिर्जेन्यावसु इन्द्राग्नि सोमपीतये स्य सुन्वतोत्रीणाम् शृणुतम् भवम् इन्द्राग्नि सोमपीतये एवाहामह्वभूतये साहुमन्तमे धीराः इन्द्राग्नि सोमपीतये आहम् सरस्वतीवतोरिन्द्राज्ञोरवो वृणे याभ्याम् गायत्रमृत्यसे अग्निमस्तोष्णिग्निरमग्निमीलायजध्यैः अग्निर्देवान्तरभुभेरन्तश्चरधिदूत्या अन्नभन्तामन्यके स मे ज्ञेनव्यसावचस्तनूषु संसमेधा जनराधीराम् विश्वा अर्यो अराधीरितो यच्छन् वामुरो न बन्दामन्यते स मे अग्ने मन्मानितोऽभ्याङ्गम् घृतम् न जुह्व आसमि स देवेषु प्रतीकिध्यत्वम् शशि पूर्यशिवो दूतो विवस्वतो न बन्दामन्यके स मे यथा कृपण्यति ऊर्जाहूर्वसूनाम् संयोस्तमयो दधे विश्वस्यै देवहूत्यैरभम् तामन्यके स मे सचीकेतसहीयसाग्निश्चित्रेण कर्मणा सहोदासस्वदीनाम् रक्षीणामिरभिवृतयिनोचितप्रधीरा अन्नमन्तामन्यकेशमे